एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। विश्वोपभोक्तृ दिवसस्य अवसरे नेपाले उपभोक्तृ न्यायालयस्य स्थापना विहितास्ति। काष्ठमण्डप ललितपुर भक्तपुर जनपदानाम् उपभोक्तृ सम्बद्ध न्यायिक प्रकरणानाम् दण्डन समाधानयोः क्षेत्राधिकारेण सहितस्य उपभोक्तृ न्यायालयस्य स्थापना विहितास्ति। प्रधान न्यायाधीशः प्रकाशमान सिंह राउत ललितपुरे ह्य न्यायालयस्य उद्घाटनम् व्यदधात्। न्यायालयस्य समुद्घाटनस्य अवसरे आयोजिते कार्यक्रमे प्रधान न्यायाधीशः राउत उपभोक्तृणाम् अधिकाराः संविधानेन मौलिकाधिकाराणाम् रूपेण स्थापिताः सन्ति, गुणस्तरीय वस्तुषु सेवायाञ्च उपभोक्तृणाम् न्यायिकोपचार प्राप्तेः अधिकारः सुनिश्चितोऽस्तीति च अगदत्। तदवसरे उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी स्वच्छस्य प्रतिस्पर्धिनस्य च आपणस्य प्रवर्धनाय उपभोक्तृणाम् अधिकारान् सुनिश्चेतुम् च उपभोक्तृ न्यायालयस्य स्थापना विहितास्तीति स्पष्टीकृतवान्। कार्यक्रमे महान्यायाधिवक्ता रमेश बडालः उपभोक्तृ न्यायालयस्य स्थापना न्यायिक सुधारस्य दिशि महत्वपूर्णं कार्यं वर्तते इति अवोचत। तदवसरे प्रतिनिधि सभा अन्तर्गतायाः उद्योग वाणिज्य श्रमोपभोक्तृहित समितेः सभापतिः अब्दुल खान समेषु सीमा प्रवेश बिन्दुषु गुणस्तरस्य परीक्षणाय प्रयोगशालां स्थापयितुं सर्वकारः निर्दिष्टोऽस्तीति अज्ञापयत। संघीय संसद सचिवालयेन प्रतिनिधि सभायाः अस्यैव चैत्रस्य आगामी पञ्चदश दिवस पार्यन्तिक कार्ययोजना सुनिश्चितास्ति। ह्य उपविष्टेन सचिवालयस्य कार्यव्यवस्था परामर्श समितेः उपवेशेन अस्यैव चैत्र मासस्य पञ्चदश दिवसं यावत् उपवेक्ष्यमाणानाम् उपवेशानाम् कार्यसूची निर्मितास्ति। कार्यसूच्याः अनुसारेण अतःपरम् अद्य स्वषष्ठे सप्तमे त्रयोदशे चतुर्दशे पञ्चदशे च दिवसेषु सप्तदिनानि उपवेशः उपवेक्ष्यति। उपवेशेन अद्य उपविश्यमानस्य उपवेशस्य कार्यसूच्याम् उपप्रधानार्थमन्त्रिणा विष्णुप्रसाद पौडेलेन एतद् विक्रमवर्षीयम् आर्थिक कार्यविधि वित्तीयोत्तरदायित्व सम्बद्धम् प्रथम संशोधन विधेयकमाश्रित्य विचार्यतामिति प्रस्तावस्य एतद् विक्रमवर्षीयम् नैजीकरण विधेयकस्य प्रथम संशोधन विधेयकम् आश्रित्य विचार्यतामिति च प्रस्तावस्य च प्रस्तुतेः सम्भाविता कार्यसूची सुनिश्चिता वर्तते। सैव अर्थमन्त्रिणा एतद् विक्रमवर्षीयम् आर्थिक व्यावसायिक वातावरण सुधार निवेशनाभिवृद्धि सम्बद्धान् कतिचित् नेपालादिनियमान् संशोधयितुम् निर्मितम् विधेयकमाश्रित्य विचार्यतामिति प्रस्तावस्य प्रस्तुतेः कार्यक्रमश्च निर्धारितोऽस्तीति ज्ञापितम् वर्तते। सभामुखा देवराज घिमिरे नेपालस्य सबल विकासाय चीनदेशेन सह विधीयमानं सहकार्यम् अतिरिक्तं प्रभावकारी सम्पाद्य पारस्परिक हितस्य क्षेत्रे अतिरिक्तस्य निवेशनस्य आवश्यकतां निश्चिनोति। फाउण्डेशन फर पीस डेवलपमेन्ट एण्ड सोशलिजम नाम्न्या संस्थया पूर्वेद्योः काष्ठमण्डपे आयोजिते बीआरआई योजना सम्बद्धे नेपाल चीन देशयोः सहकार्य सम्बद्धे च विमर्शन कार्यक्रमे सभामुख घिमिरे निवेशनस्य सम्भावनां समुचित रूपेण विचार्य बीआरआई संविधायाः अन्तर्गतायै नूतन परियोजनायै प्राथमिकता प्रदातव्येति बलं प्रादात्। सभामुखा घिमिरे समीचीन मित्रस्य निकटस्थ प्रतिवेशिनश्च रूपेण नेपालेन चीनदेशस्य प्रगतौ गौरवानुभूत्या सह वृद्ध आर्थिक सहकार्यस्य माध्यमेन चीनदेशस्य अद्वितीय विकासात् समृद्धेश्च लाभं ग्रहीतुम् ईप्सितमस्तीति समस्पष्टयत्। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह देशम् संकटाद रक्षितुम् नेपाली कांग्रेस नेकपा एमाले दलयोः गठबन्धनस्य वर्तमान सर्वकारस्य निर्माणम् तात्कालिक परिस्थितेः उपजम् अस्तीति स्पष्टीकरोति। नेपाल पत्रकार महासंघस्य पाल्पा शाखया ह्य पाल्पा जनपदे आयोजिते पत्रकार मेलन कार्यक्रमे मन्त्री सिंह आर्थिक विकास प्रवृत्तिनाम राष्ट्र निर्माणस्य गतिविधिनाम शून्य प्राय भवनस्य पश्चात वर्तमान गठबन्धन सर्वकार निर्मितोऽस्तीति न्यश्चिनोत्। राजवादीनाम गतिविधयः वर्धमानाः सन्तोऽपि तद्विषये चर्चायाः कथंविदमपि औचित्यं नास्तीत्यतः संघीय लोकतान्त्रिक गणतन्त्रात्मक व्यवस्थां सुदृढां विधातुं सर्वेषु राजनीतिक दलेषु एकतायाः आवश्यकतायां मन्त्री सिंह बलं दत्तवान्। राष्ट्रिय सभाया अध्यक्ष नारायण प्रसाद दाहाल संसद वर्तमान अधिवेशनादेव शिक्षा अधिनियमेन सह नैके अधिनियमाः पारितीकरिष्यन्ते इति उद्घोषयति। निर्माणा माध्यमिक विद्यालयेन ह्य ललितपुरे आयोजिते कार्यक्रमे अध्यक्षो दाहालः जनतायाः मौलिकाधिकाराणां क्रियान्वयनाय अधिनियमानां पारितीकरणम् आवश्यकम् अस्तीति चर्चां कुर्वाणः संसदः वर्तमानाधिवेशनादेव इमे अधिनियमाः पारितीकरिष्यन्ते इति असूचयत्। विद्यालय शिक्षा विधेयकं सम्प्रति प्रतिनिधिसभायां विमर्शनस्य क्रमे अस्ति। विधेयकस्य सदनद्वयादेव पारिती करणस्य पश्चात् शिक्षा क्षेत्रे दृष्टाः समस्याः समाधास्यन्ते इति अध्यक्षो दाहालः विश्वासं व्यक्तवान्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः आन्दोलनरतानां शिक्षकाणां याचनाः सर्वकारेण शीघ्रं सम्बोधनीयाः इत्यत्र बलं ददाति। विद्यालय शिक्षा विधेयकं तत्कालं पारितीकर्तव्यमिति याचनां विधाय आन्दोलनरतस्य नेपाल शिक्षक महासंघस्य प्रतिनिधिमण्डलेन सह ह्य सम्भूते मेलने अध्यक्ष प्रचण्डः शिक्षकाणां समुचितां याचनां प्रति औदासीन्येन भाव्यमिति अवोचत। शिक्षकाणां याचनायाः समग्र शैक्षिक क्षेत्रस्य च विषये समाना दृष्टि सम्भूता नास्तीति चर्चेन अध्यक्षो दाहाल देशस्य समृद्धे मुख्याधारः शिक्षा एव अस्तीत्यतः याचनायाः सम्बोधनाय गभीरं भवितुं सर्वकारम् अन्वरुणदिति तदीय नैज सचिवालयेन ज्ञापितम् वर्तते। नेकपा एकैक समाजवादी दलेन सुशासन वृत्त्युपार्जन प्रवृत्तिषु विषयेषु केन्द्रितम् देशव्यापी समाजवादी अभियानम् प्रारब्धम् वर्तते। आगामिनो वैशाख मासस्य द्वाविंशम् दिवसम् यावत् सञ्चालयिष्यमाणे अभियाने विभिन्न क्षेत्राणाम् संघ संगठन व्यक्तिभिः वडा ग्राम प्रदेश केन्द्रीय स्तरेषु विमर्शनम् करिष्यते इति दलस्य केन्द्रीय प्रचार विभागस्य प्रमुखः प्रकाश ज्वाला असूचयत्। अभियानस्य क्रमे शिक्षा स्वास्थ्य पर्यटन पूर्वाधार प्रवृत्तिषु क्षेत्रेषु विज्ञेभ्यः परामर्शनम् संकलयिष्यते। जनतायाः विकासस्य इच्छायाः अपूरणस्य समये तेषाम् असन्तुष्टिम् सम्बोधयितुम् देशस्य वर्तमानावस्थायाः विषयम् ज्ञापयितुम् च अभियानमिदम् उपयोगी शिष्यतीति प्रचार विभाग प्रमुख ज्वाला विश्वासम् व्यक्तवान्। नेपाल तैल निगमेन शिला तैलीय पेट्रोलियम पदार्थस्य मूल्यं समायोजितं वर्तते। निगम संचालक समिते ह्यस्तनोपवेशेन गत मध्यरात्रितः क्रियान्वयनत्वेन पेट्रोल तैले प्रतिलिटरमितं 5 रूप्यकाणि डीजेल मृत्तिका तैलयोः मूल्यं प्रतिलिटरमितं 4 रूप्यकैश्च न्यूनीकर्तुं निर्णीतं वर्तते।